සක්කපඤ්ඤසුත්තං ඒවං මේ සුතං ඒකං සමයං භගවා මගධේසු විහරති පාචීනතෝ රාජගස්ස අම්බසණ්ඩානාම බ්‍රාහ්මණ ගාමෝ තස්සුත්තරතෝ වේදියකේ පබ්බතේ ඉන්දසාල ගුහායං තේන කෝපන සම්මයේන සංකස්ස දේවානමින්දස්ස උස්සුක්කං උදපාදි භගවන්තං දස්සනාය අතකෝ සක්කස්ස දේවානමින්දස්ස ඒතදහෝසි කහන්නුකෝ භගවායේතරහි විහරති අරහං සම්මා සම්බුද්ධෝති අන්දසාකෝසක්කෝ දේවානමින්දෝ භගවන්තං මගධේසු විහරන්තං පාචීනතෝ රාජගහස්ස අම්බසණ්ඩානාම බ්‍රාහ්මණ ගාමෝ තස්සුත්තරතෝ වේදියකේ පබ්බතේ ඉන්දසාල ගුහායං දිස්වාන දේවේ තාවතින්සේ ආමන්තේසේ අයං මාරිසා භගවා මගධේසු විහරති පාචීනතෝ රාජගහස්ස අම්බසණ්ඩානාම බ්‍රාහ්මණ ගාමෝ තස්සුත්තරතෝ වේදියකේ පබ්බතේ ඉන්දසාල ගුහායං යදි පනමාරි සාමයන්තම් භගවන්තං දස්සනාය උපසංකමෙයාම අරහන්තං සම්මා සම්බුද්ධන්ති ඒවං භදන්තවාතිකෝ දේවා තාවතින්සා සක්කස්ස දේවානමින්දස්ස පච්චස්සෝසුන් අතකෝ සක්කෝ දේවානමින්දෝ පංචසිඛං ගන්ධබ්බ දේව පුත්තං ආමන්තේසි අයන්තාත පංචසිඛ භගවා මගධේසු විහරති පාචීනතෝ රාජගහස්ස අම්බසණ්ඩානාම බ්‍රාහ්මණ ගාමෝ තස්සුත්තරතෝ වේදියකේ පබ්බතේ ඉන්දසාල ගුහායං යදි පනතාත පංචසිඛමයන්තම් භගවන්තං දස්සනාය උපසංකමෙයාම අරහන්තං සම්මා සම්බුද්ධන්ති ඒවං භදන්තවාතිකෝ පංචසිඛෝ ගන්ධබ්බ දේවපුත්තෝ සක්කස්ස දේවානමින්දස්ස පටිස්සුත්වා බේලුව පණ්ඩුං වීනං ආදාය සක්කස්ස දේවානමින්දස්ස අනුචරියං උපාගමි අතකෝ සක්කෝ දේවානමින්දෝ දේවේහි තාවතින්සේහි පරිවුතෝ පංචසිඛේන ගන්ධබ්බ දේවපුත්තේන පුරක්ඛතෝ සේයථාපි නාම බලවා පුරිසෝ සම්මිංජිතං වා බාහං පසාරෙය්‍ය පසාරිතං වා බාහං සම්මිංජෙය්‍ය एवमेव देवेषु तावतिं सेषु अन्तरयितो मगधेषु पाचेनतो राजगहस् अम्बसण्डानां ब्राह्मणगामो तस्सुत्रतो वेदियके पब्बते पच्चुट्ठासि तेन खोपनसमयेन वेदियको पम्बतो अतिरिव ओभासजातोति अम्बसण्डा च ब्राह्मणगामो यथा तं देवानं देवानुभावेन अपि सुदं परितो गामेषु मनुष्य एव मांसु आदितस्सु नामञ्जवेदियको पम्बतो जायतिस्सु नामञ्जवेदियको पम्बतो जलतिस्सु नामञ्जवेदियको पम्बतो किंसु नामञ्जवेदियको पम्बतो अतिरिव ओभासजातो अम्बसण्डा च ब्राह्मणगामोति संविङ्गालो महण्ठजातायेषु अथ को शङ्खो देवानमिन्दो पञ्चशिखं गन्धम्बदेवपुन्तं आमन्तेसि दुरुपशङ्खमाखोतात् पञ्चशिख तथागता मादिसेन झायी झानरता तदन्तरपटिसल्लीन यदि पनत्वन्तात् पञ्चशिख भगवन्तं पठमं पसादेयासि तया तात् पठमं पसादितं पञ्चामयन्तं भगवन्तं दर्शनाय उपशङ्खमेयाम् अर्हन्तं सम्मा सम्बुधन्ति एवं भन्दन्तवातिखो पञ्चशिखो गन्धम्बदेवपुत्रो सकस्स देवानमिन्दस्स पठिसुत्वा बेलुवपण्डुवीनं आदाय येन इन्दसालगुहातेनुपशङ्खमि उपशङ्खमित्वायन्तावता मे भगवानेव अतिदूरे भविष्यति न चासनेन सन्दं च मे स्वस्यतीति एकमन्तं अट्ठासि एकमन्तं ठितोखो पञ्चशिखो गन्धम्बदेवपुत्रो बेलुवपण्डुवीनं अस्सावेसि इमा च गाथाभासि बुद्धोपसंहिता धम्मोपसंहिता सङ्घोपसंहिता अरहन्तोपसंहिता कामोपसंहिता वन्दे ते पितरं वन्दे तिम्बरुं सूर्यवञ्चसे येन जातासि कल्याणी आनन्दजननी मम वातो च सेदतं कन्तो पानीयञ्च पिपासतो अङ्गिरसि पियामेसि धम्मो अर्हतामिव आतुरस्येव भेषजं भोजनं वजिघञ्छतो परिनिम्बापय मं भन्दे जलान्तमिव वारिना शीतोदकं पोङ्करणिं युत्तकिं जङ्करेणुना नागोघम्माभितन्तो ओ गायेते तनुदरं अचङ्कुशोच नागो जितं मे तुत्ततोमरं कारणं नपजानामि सम्मतो लङ्कनुरुया तैगेधितचित्तोऽस्मि चित्तं विपरिणामितं पटिगन्तुं न शक्नोमि वङ्कघस्तो अम्बुजो वामूर्सजमं भन्दे सजमं मन्दलोचने पलिसजमं कल्याणी एतं मे अभिपतितं अपकोवत मे संतो कामो वेललितकेशिया अनेक भाव समपादि अरहन्तेव दक्षिणा यं मे अतिथिकतं पुण्यं अरहन्ते सुतादिषु तं मे सम्भङ्गकल्याणी तया सन्धिं विपञ्चतं यं मे अतिथिकतं पुण्यं अस्मिन् पठविमण्डले तं मे सम्भङ्गकल्याणी तया सन्धिं विपञ्चतं सङ्ख्यपुन्तो ज्ञानेन एको दिनिपकोशतो अमतं मुनिजिगिंसानो तमहं सूर्यवञ्चसे यथापि मुनिनन्देय पत्न्वा सम्बोधिमुत्तमं एवं नन्देयं कल्याणी मिस्से भावं गतो तया सङ्कोचे मे वरं दज्ज तावतिंसानमिस्सरो ताहं भन्दे वरैयाहे एवं कामो दल्लो मम सालं च न चिरं फुल्लं पितरं ते सुमेधसे वन्दमानो नमस्सामि यस्सासे तादिशे पजाति एवं वुत्ते भगवा पञ्चशिखं गन्धम्बदेवपुत्तं एतद्वोच संसन्दतिखोते पञ्चशिखतन्तिस्सरोगीतस्सरेण गीतस्सरोच तन्तिस्सरेण च पनते पञ्चसिखतन्ति सरोगी तस्सरङ्गतिवन्तति गीतस्सरोच तन्तिस्सरं कदा संयोल्हापनते पञ्चसिखैमा गाथा बुद्धोपसंहिता धम्मोपसंहिता सङ्घोपसंहिता अरहन्तोपसंहिता कामोपसंहिताति एकमिदाहं भन्ते समयं भगवा उरुवेलायं विहरति न जाने रञ्जरायति रे अजपालनिग्रोधमूले पटमाभिसम्बुद्ध तेन खोपनाहं भन्ते समयेन भन्दानां सूर्यवञ्चसा तिम्बरुणो गन्धम्बरन्यो धीता तमभिकङ्खामि साखोपनभन्ते भगिनी परकामिनी होति शिखण्डी नाम मातलिस्स सङ्गाहकस्स पुत्रो तमभिकङ्खति यतो कोऽहं भन्ते तं भगिनीं नालत्थं केनचि पर्यायेन अताहं बेलुवपण्डुवीनं आदाय येन तिम्बरुणो गन्धम्बरन्यो निवेशनं तेनुपसङ्कमिं उपसङ्कमित्वा बेलुवपण्डुवीनं अस्सावेशिन् इमा च गातायो अभासिन् बुद्धोपसंहिता धम्मोपसंहिता सङ्घोपसंहितारहन्तोपसंहिता कामोपसंहिता वन्दे ते पितरं वन्दे तिम्बरुं सूर्यवञ्चसे येन जातासि कल्याणी आनन्दजननी मम पेयाल सालं च न चिरं फुल्लं पितरं ते सुमेधसे वन्दमानो नमस्सामि यस्सासे तादिशि पजाति एवं वुत्ते भन्ते भन्दा सूर्यवच्च सामङ्गि तद्वोच नखो मे मारिषसो भगवा सम्मुखादिन्तो अपि च सुतो एव मे सो भगवा देवानं तावतिंसानं सुधम्मायं सभायं उपनच्छन्ति यतोखो त्वं मारिषतं भगवन्तं कितेषि होतु नो अञ्ज समागमोति सोऽयेव नो भन्ते तस्सा भगिन्या सन्धिं समागमो अहोसि न च दानि ततो पञ्चाति अथ को शङ्कस्स देवानमिन्दस्स एतदोऽसि पटि सम्मोदति को पञ्चसिखो गन्धम्बपुत्रो भगवता भगवाच पञ्चसिखेनाति अथ को सको देवानमिन्द पंच शिखं गंधर्व देव पुत्तं आमन्त्रयसि अभिवादेहि मे तत्थं तात पंच शिख भगवन्तं सको भन्ते देवानमिन्द सामचो सपरिजनो भगवतो पादे शिरसा वन्दति इति एवं भदन्त वातिखो पंच शिखो गंधर्व देव पुत्तो सकस्स देवानमिन्दस्स पठिसुत्वा भगवन्तं अभिवादेसि सक्को भन्ते देवानमिन्द सामचो सपरिजनो भगवतो पादे शिरसा वन्दति इति एवं सुखी होतु पंच शिख सको देवानमिन्द सामचो सपरिजनो सुख कामाहि देवा मनुस्सा असुरा नागा गंधर्व ये चान्ये सन्ति पुथुकायाति एवञ्च पन तथागता एव रूपे महे संखे यक्खे अभिवदन्ति अभिवदितो सक्को देवानमिन्दो भगवता इन्दसालगुहं प्रविशित्वा भगवन्तं अभिवादित्वा एकमन्त्रं अट्ठासि देवा पितावतीं सा इन्दसालगुहं प्रविशित्वा भगवन्तं अभिवादित्वा एकमन्त्रं अट्ठन्सु पंच शिखोपि गंधर्व देव पुत्तो इन्दसालगुहं प्रविशित्वा भगवन्तं अभिवादित्वा एकमन्त्रं अट्ठासि तेन खोपन समयेन इन्दसालगुहा विषमा सन्ति समा समपादि संबाधा सन्ति उरुन्दा समपादि अन्धकारो गुहायां अन्तर्धायि आलोको उदपादि यथा तं देवानं देवानुभावेन अथ को भगवा सकं देवानमिन्दं एतदवोच अच्छर्यमिदं आयस्मतो कोशियस्स अभूतमिद आयस्मतो कोशियस्स ताव बहु किञ्चस्स बहु करणीयस्स यदिदं इधा गमनन्ति चिरपतिकां भन्ते भगवन्तं दर्शनाय उपसंकमितु कामो अपि च देवानं तावतींसानं केहिचि केहिचि किञ्च करणीये हि व्यावटो एवाहं नासक्किं भगवन्तं दस्सनाय उपसंकमितुं एकमिदं भन्ते समयं भगवा सावत्यं विहरति सललागारके अथ क्वाहं भन्ते सावत्थिं अगमासिं भगवन्तं दस्सनाय तेन खोपन भन्ते समयेन भगवा अन्यतरेन समाधिना निसिन्नो होति भुञ्जते नाम विश्ववनस्य महाराजस्य परिचारिका भगवन्तं पञ्चपण्डिता होति पञ्जलिका नमस्समाना अथ क्वाहं भन्ते भुञ्जतिं एतदवोचम् अभिवादेहि मे त्वं भगिनि भगवन्तं सङ्को भन्ते देवानमिन्दो सामञ्चो सपरिजनो भगवतो पादे शिरसा वन्दतीति एवं भुन्ते भन्ते सा भुञ्जति मन्येतदवोच अकालोखो मारिस भगवन्तं दस्सनाय पतिसल्लीनो भगवाति तेन हि भगिनी यदा भगवा तम्हा समाधिम्हा उत्थितो होति अथ मम वचनेन भगवन्तं अभिवादेहि सङ्को भन्ते देवानमिन्दो सामञ्चो सपरिजनो भगवतो पादे शिरसा वन्दतीति कच्छिमे सा भन्ते भगिनी भगवन्तं अभिवादेसि सरति भगवातस्सा भगिनिया वचनन्ति अभिवादेसि मं सा देवानमिन्द भगिनी सरामहं तस्सा भगिनिया वचनं अपि चाहं आयस्मतो च नेमि सन्देन तम्हा समाधिम्हा उत्थितोति ये ते भन्ते देवा अम्हेहि पठमतरं तावतिंसकायं उपपन्न ते संमे सम्मुखा सुतं सम्मुखा पतिंगहितं यदा तथागता लोके उपपञ्चन्ति अर्हन्तो सम्मा सम्बुद्ध दिम्बाकाया परिपूरन्ति हायन्ति असुरकायाति तं मे इदं भन्ते सङ्खिदिट्ठं यतो तथागतो लोके उपपन्नो अरहं सम्मा सम्बुद्ध दिम्बाकाया परिपूरन्ति हायन्ति असुरकायाति इधेव भन्ते कपिलवत्थुस्मिं गोपिकानां सङ्ख्यधीता अहोसि बुद्धे प्रसन्ना धम्मे प्रसन्ना सङ्घे प्रसन्ना शीलेषु परिपूरकारिणी या इत्थितं विराजत्वा पुरिसत्तं भावित्वा කායස්ස බේදා පරම්මරණ සුගතිං සංගං ලෝකං උපපන්න දේවානන්තාවතින් සානං සහම්බෙතං අම්හාකං පුත්තත්තං අජ්ජූපගතා තත්‍රපිනං ඒවං ජානන්ති ගෝපකෝ දේවපුත්තෝ ගෝපකෝ දේවපුත්තෝති අඤ්ඤීපි භන්තේ තයෝ භික්ඛු භගවති බ්‍රහ්මචරියං චරිත්වා හීනං ගන්ධබ්බකායං උපපන්න තේ පංචහි කාමගුණේහි සමම්පිතා සමංගි භූතා පරිචාරයමාන අම්හාකං උපට්ඨානමාගච්ච චන්ති අම්මාකම් පාරිචරියං තේ අම්මාකං උපට්ඨානමාගතේ අම්මාකං පාරිචාරියං ගෝපකෝ නාම දේවපුත්තෝ පටිචෝදේසි කුතෝ මුඛා නාම තුම්හි මාරිසා තස්ස භගවතෝ ධම්මං අස්සුත්තා අහං හි නාම ඉත්ථිකා සමානා බුද්ධේ පසන්නා ධම්මේ පසන්නා සංඝේ පසන්නා සීලේසු පරිපූරකාරිණී ඉත්ථි තං විරාජෙත්වා පුරිසත්තං භාවෙත්වා කායස්ස බේදා පරම්මරණ සුගතිං සංගං ලෝකං උපපන්න දේවානන්තාවතින් සානං සම්බෙතං සක්කස්ස දේවානමින්දස්ස පුත්තත් අජ්ජූපගතා ඉධාපි මං ඒවං ජානන්ති ගෝපකෝ දේවපුත්තෝ ගෝපකෝ දේවපුත්තෝති තුම්හි පනමාරිසා භගවති බ්‍රහ්මචරියං චරිත්වා හීනං ගන්ධබ්බකායං උපපන්න දුන්දිින්ටරූපං වත බෝ අද්දසාම ඊමයං අද්දසාම සහධම්මිකේහීනං ගන්ධම්බකායං උපපන්නේති තේ සම්බන්තේ ගෝපකේන දේවපුත්තේන පටිචෝදිතානං ද්වේ දේවාදිත් ඒව ධම්මේ සතින් පටිලබින් සුඛායං බ්‍රහ්මපුරෝහිතං ඒකෝපන දේවෝ කාමේ අඤ්ඤාවසි උපාසිකා චක්කුමතෝ අහෝසිං නාමම්පි මෛහං අහුගෝපිකාති බුද්ධේච ධම්මේච අභිප්පසන්නා සංඝංච පට්ඨාසින් පසන්න චිත්තා තස්සේව බුද්ධස්ස සුධම්මතාය සක් කස්ස පුත්තෝමි මහානුභාවෝ මහාජතේකෝ තිදිවූපපන්නෝ ජානන්ති මං ඉධාපි ගෝපකෝති අතද්ද සංභික්කවෝ දිට්ඨ පුබ්බේ ගන්ධබ්බකායෝ පගතේ වහිනේ ඉමේහි තේ ගෝතම සාවකස්සේ යේච මයං පුබ්බේ මනුස්ස භූතං අන්නේන පානේන උපට්ඨයිම්මා පාදෝපසංගයිහ සකේ නිවේසනේ කුතෝ මුඛානාම ඉමේ භවන්තෝ බුද්ධස්ස ධම්මානි පටිග්ගහේසුං පච්චත්තං වේදි තබ්බහි ධම්මෝ සුදේසිතෝ චක්ඛුමතානු බුද්ධෝ අහං හිතුම් ඒව උපාසමානෝ සුත්වාරියානං සුභාසිතානි සක්කස්ස පුත්තෝමි මහානුභාවෝ මහාජුතේකෝති දූපපන්නෝ තුම්හේ පනසෙට්ට මුපාසමානා අනුත්තරං බ්‍රහ්මචරියං චරිත්වා හීනංකායං උපපන්නා භවන්නෝ අනානුලෝමා භවතෝපපත්ති දුදිට්ඨරූපං වත අද්දසාම සහධම්මිකේ හීන කායෝපපන්නේ ගන්ධම්භ කායෝපගතා භවන්තෝ දේවානමාගච්ඡත පාරිචරියං අගරේ වසතෝ මයිහං ඉමං පස්ස විශේෂතං ඉත්ති හුත්වා සංජ පුමාම්මි දේවෝ දිබ්බේහි කාමේහි සමංගි භූතෝ තේචෝදිතා ගෝතම සාවකේන සංවේග මාපාදුං සමෙත්ච ගෝපකං හන්ද බ්‍යායාමාම ව්‍යායමාම මානෝමයං පරපෙස්සාහුම්හ තේසන්දුවේ විරියං ආරභින්සෝ අනුස්සරං ගෝතම සාසනානි ඉදේව චිත්තානි විරාජයිත්වා කාමේසු ආදීනව මද්ද සංසු තේ කාම සංයෝජන බන්ධනානි පාපිමයෝගානි දුරංචයානි නාගෝ සන්දාන ගුණානි චෙත්න්වා දේවේතාවතින්සේ අතික්කමින්සු සයින්දදේවා සපජාපතිකා සබ්බේ සුධම්මාය සභායු පවිට්ඨා තේ සන්නිසින්නානං අතික්කමින්සු වීරා විරාගා විරජං කරුන්තා තේ දිස්වා සංවේගමකාසිවාසවෝ දේවාභිභූදේව ගනස්ස මජ්ජේ इमेहि तेहि न कायोपपन्ना देवेता तिंसे अतिक्कमन्ति संवेगजातस्स वचो निसम्म सोगोपको आसव मज्जभासि बुद्धो जनिन्दन्ति मनुस्सलोके कामाभिभोसंके मुनीति ज्ञायति तस्से ते पुत्ता सतिया विहीना चोदिता मया ते सतिमज्जलत्तुं तिन्नं ते संवसी निथेको गंधर्वकायोपगतो वहीनु द्वेचेव संबोधि पथानुसारिनो देवेपि हीलेंति समाहितत्ता एतादिसे धम्मप्रकाशनित्त नतत्त किं कंखति कोचि सावको निथिन्न ओघं विचिकिच्छा जिन्नं बुद्धं नमस्साम जिनं जनिन्दं यन्ते धम्मं इधन्याय विशेषं अज्जगं सुते कायं ब्रह्म पुरोहितं द्वे तेषं विशेषगु तस्स धम्मस्स पत्तिया आगतं आसि मारिस कतावकाशा भगवता पञ्यं पुञ्छेमु मारिसाति अथको भगवतो एतदोसि दीघरत्तं विशुद्धोखो अयं संको यं किञ्चिमं पञ्यं पुञ्छिस्सति सम्भं तं अन्तसंहितं येव पुञ्छिस्सति नो अनन्तसंहितं यं चस्सं पुट्टो व्याकरिष्यामि तं किम्पमेव आजानिष्यतीति अथको भगवा सकं देवा नमिंदं गाथाय अज्जभासि पुच्छवास मं पञ्यं यं किञ्चि मनसिच्छसि तस्स तस्सेव पञ्यस्स अहं अन्तं करोमि तेति पठम भानवारं निच्छितं कतावकाशो सक्को देवानमिन्दो भगवता इमं भगवन्तं पठमं पञ्यं अपुच्छि किं संयोजनानुखो मारिस देवा मनुस्सा असुरा नागा गंधर्वा ये चान्ये सन्ति पृथुकाया ते अवेरा अदंडा असपत्ता अभ्या पञ्जा विहरेमु अवेरिनोति इति चेने संहोति अथ च पन सवेरा सदंडा ससपत्ता सभ्या पंजा विहरन्ति सवेरिनोति इत्थं संको देवानमिन्दो भगवन्तं पञ्यं अपुच्छि तस्य भगवा पञ्यं पुण्ठो व्याकासि इस्सामच्छरिय संयोजनाखो देवानमिन्द देवा मनुस्सासुरा नागा गंधब्बा ये चान्ये सन्ति पुथुकाया ते अवेरा दंडा सपत्ता अभ्या पंजा विहरेमु अवेरिनोति इति चेने संहोति अथ च पन सवेरा सदंडा ससपत्ता सभ्या पंजा विहरन्ति सवेरिनोति इत्थं भगवा संकस्स देवानमिन्दस्स पञ्यं पुण्ठो व्याकासि अन्तमनो संको देवानमिन्दो भगवतो भासितं अभिनन्दि अनुमोदि एवमेतं भगवा एवमेतं सुगत तिन्नामित्थकंका विगता कथं कथा भगवतो पञ्यस्य वेया करणं सुत्वाति इति हि संको देवानमिन्दो भगवतो भासितं अभिनन्दित्वा अनुमोदित्वा भगवन्तं उत्तरिं पञ्यमपुच्छि इस्सामच्छरियं पनमारिस किं निदानं किं समुदयं किं जातिकं किं पभवं किस्मिं सति इस्सामच्छरियं होति किस्मिं असति इस्सामच्छरियं न होतीति इस्सामच्छरियं को देवानमिन्द पियाप्य निदानं पियाप्य समुदयं पियाप्य जातिकं पियाप्य प्रभवं पियाप्य सति इस्सामच्छरियं होति पियाप्य असति इस्सामच्छरियं न होतीति पियाप्यं खोपनमारिस किं निदानं किं समुदयं किं जातिकं किं प्रभवं किस्मिं सति पियाप्यं होति किस्मिं असति पियाप्यं न होतीति पियाप्यं खो देवानमिन्द छन्द निदानं छन्द समुदयं छन्द जातिकं छन्दप्रभवं छन्दे सति पियाप्यं होति छन्दे असति पियाप्यं न होतीति Chanda khapana maris king nidano king samudayo king jatiko king pabhav kismin sati chanda hoti kismin asati chanda na hoti ti Chanda kho devanaminda vitakka nidano vitakka samudayo vitakka jatiko vitakka pabhav vitakke sati chanda hoti vitakke asati chanda na hoti ti Vitakko khapana maris king nidano king samudayo king jatiko king pabhav kismin sati vitakko hoti kismin asati vitakko na hoti ti Vitakka kha devanaminda papancha sanya sankha nidano papancha sanya sankhaya samudayo papancha sanya sankha jatiko papancha sanya sankha pabhav papancha sanya sankhaya sati vitakko hoti papancha sanya sankhaya asati vitakko na hoti ti kathang patipanno panamarisa bhikkhu papancha sanya sankha nirodha sarupagaminin patipadam patipanno hoti ti somanassampan devanaminda duvidhena vadami sevitabbampi asevitabbampi domanassampahan devanaminda duvidhena vadami sevitabbampi asevitabbampi upekkhavampahan devanaminda duvidhena vadami sevitabbampi asevitabbampi somanassampahan devanaminda duvidhena vadami sevitabbampi asevitabbampi ti iti kho panitang vuttang kincetang paticca vuttang tattayang janya somanassang imankho me somanassang sevato akusala dhamma abhivandhanti kusala dhamma parihayanti ti evarupang somanassang nasevitabbang tattayan janya somanassang imaṃ kho me somanassaṃ sevato akusala dhamma parihāyanti kusala dhamma abhivandhanti ti eva rūpaṃ somanassaṃ sevitabbaṃ tattayanye savitakkaṃ savicāraṃ yanye avitakkaṃ avicāraṃ ye avitakka avicāre te panītatare සෝමනස්සම්පාන් දේවානමින්ද දුවිධේන වදාමි සේවිතබ්බම්පි අසේවිතබ්බම්පීති ඉතියන්තං වුත්තං ඉදමේතං පටිච්ච වුත්තං දෝමනස්සම්පාන් දේවානමින්ද දුවිධේන වදාමි සේවිතබ්බම්පි අසේවිතබ්බම්පීති ඉතිඛෝපනීතං වුත්තං කිංචේතං පටිච්ච වුත්තං තත්තයං ජඤ්ඤා දෝමනස්සං ඉමං කෝමේ දෝමනස්සං සේවතෝ අකුසල ධම්මා අභිවණ්ඩಂತಿ කුසල ධම්මා පරිහායන්තිති ඒව රූපං දෝමනස්සං සේවිතබ්බං තත්තයං ජඤ්ඤා දෝමනස්සං ඉමං කෝමේ දෝමනස්සං සේවතෝ අකුසල ධම්මා පරිහායන්ති කුසල ධම්මා අභිවණ්ඩಂತಿති ඒව රූපං දෝමනස්සං සේවිතබ්බං තත්තයඤ්ඤි සවිතක්කං සවිචාරං යඤ්ඤි අවිතක්කං අවිචාරං යේ අවිතක්ක අවිචාරේතේ පනීතතරේ දෝමනස්සම්පාහං දේවානමින්ද දුවිධේන වදාමි සේවිතබ්බම්පි අසේවිතබ්බම්පීති ඉතියන්තං වුත්තං ඉදමේතං පටිච්ච වුත්තං උපේක්ඛම්පාහං දේවානමින්ද දුවිධේන වදාමි සේවිතබ්බම්පි අසේවිතබ්බම්පීති ඉතිඛෝපනීතං වුත්තං කිංචේතං පටිච්ච වුත්තං තත්තයං ජඤ්ඤා උපේක්ඛං ඉමං කෝමේ උපේක්ඛං සේවතෝ අකුසල ධම්මා අභිවණ්ඩಂತಿ කුසල ධම්මා පරිහායන්තිති ඒව රූපා උපේක්ඛාන සේවිතබ්බ තත්තයං ජඤ්ඤා උපේක්ඛා ඉමං කෝමේ උපේක්ඛං සේවතෝ අකුසල ධම්මා පරිහායන්ති කුසල ධම්මා අභිවණ්ඩಂತಿති ඒව රූපා උපේක්ඛා සේවිතබ්බ තත්තයඤ්ඤි සවිතක්ඛං සවිචාරං යංචේ අවිතක්ඛං අවිචාරං යේ අවිතක්ක අවිචාරේතේ පනීතතරේ උපේක්ඛම්පාන් දේවානමින්ද දුවිධේන වදාමි සේවිතබ්බම්පි අසේවිතබ්බම්පීති ඉතියන්තං වුත්තං ඉදමේතං පටිච්ච වුත්තං ඒවං පටිපන්නෝ කෝ දේවානමින්ද භික්ඛු පපංච සංඥා සංඛා නිරෝධ සාරූපගාමිනී පටිපදං patipanno hoti iti. Ittang bhagava sankassa devanam indassa paññang putto byakasi. Attamano sakko devanam indo. Bhagavato bhasitang abhinandi anumodi. Eva metam bhagava eva metam sugata. Tinna metta kankha vigata katang katha. Bhagavato panya veya karanang sutnvati. Itiya sakko devanam indo bhagavato bhasitam abhinanditva anumoditva. Bhagavantam uttarim panyam apunchi. Katam patipanno panamarisa bhikkhu. Pāti mukha saṁvarāya paṭipanno hoti iti. Kāya samācāraṁ pāhaṁ devānam inda duvidhena vadāmi. Sevitabbam pi asevitabbam pi iti. Vachi samacharam pahan devanam inda duvidhena vadami. Sevitabbam pi asevitabbam piti. Pariyesanam pahan devanam inda duvidhena vadami. Sevitabbam pi asevitabbam piti. Kaya samacharam pahan devanam inda duvidhena vadami. Sevitabbam pi asevitabbam piti. Itiko panitang vuttang. Kitanchetang patitancha uttang. Tattayam janya kaya samacharam. Imam kho me kaya samacharam sevato. Akusala dhamma abhivardhanti. Kusala dhamma parihayantiti. Evarupo kaya samacharo na sevitabbo. Tattayan janya kaya samacharam. Imankho me kaya samacharam sevato. Akusala dhamma parihayanti. Kusala dhamma abhivadhanti ti. Evarupo kaya samacharo sevitambo. Kaya samacharam pahan devanam inda duvidhena vadami. Sevitabbam pi asevitabbam pi iti. Iti antang uttang. Idamitang patitcha uttang. Vachi samacharam pahan devanam inda duvidhena vadami. Sevitabbam pi asevitabbam pi iti. Itiko panitang vuttang. Kinchetang patitcha vuttang. Tattayam janya vachi samacharam. इमं कोमेवचे समाचारं सेवतो अकुसला धम्मा अभिवर्धन्ति कुसला धम्मा परिहायन्ति इति एव रूपो वचे समाचारो न सेवितम्बो तन्तयं जन्या वचे समाचारं इमं कोमि वचे समाचारं सेवतो अकुसला धम्मा परिहायन्ति कुसला धम्मा अभिवर्धन्ति इति एव रूपो वचे समाचारो सेवितम्बो वचे समाचारं पाहं देवानमिन्द दुविधेन वदामि सेवितम्बं प्रियसेवितम्बं प्रीति इति अन्तं वुत्तं इदमेतं पतिञ्च वुत्तं परियेसनं पाहं देवानमिन्द दुविधेन वदामि सेवितम्बं प्रियसेवितम्बं प्रीति इति खोपनीतं वुत्तं किञ्चेतं पठिञ्च वुत्तं तन्थयञ्जन्या परियेसनं इमं को मे परियेसनं सेवतो अकुसला धम्माभिवर्धन्ति कुसला धम्मा परिहायन्ति इति एव रूपा परियेसनान सेवितम्बा तन्थयञ्जन्या परियेसनं इमं को मे परियेसनं सेवतो अकुसला धम्मा परिहायन्ति कुसला धम्मा अभिवर्धन्ति इति एव रूपा परियेसना सेवितम्बा परियेसनं पाहं देवानमिन्द दुविधेन वदामि सेवितम्बं प्रियसेवितम्बं प्रीति इति अन्तं वुत्तं इदमेतं पठिच्च वुत्तं एवं पटिपन्नो खो देवानमिन्द भिक्खु पातिमुखसंवराय पटिपन्नो होतीति इत्थं भगवा सक्खस्स देवानमिन्दस्स पञ्ञं पुट्ठो व्याकासि अत्तमनो संको देवानमिन्दो भगवतो भासितं अभिनन्दि अनुमोदि एवमेतं भगवा एवमेतं सुगत थिन्नामित्थकं खा विगता कथं कथा भगवतो पञ्यवैयाकरणं सुत्न्वाति इति सङ्को देवानमिन्दो भगवतो भासितं अभिनन्दित्वानुमोदित्वा भगवन्तं उत्तरिं पञ्ञं अपुच्छि कथं पटिपन्नो पनमारिष भिक्खु इन्द्रियसंवराय पटिपन्नो होतीति चक्खुविञ्ञेयं रूपं पाहं देवानमिन्द दुविधेन वदामि सेवितम्बं प्रियसेवितम्बं प्रीति සෝත විඤ්ඤේයං සද්දම් පාහං දේවානමින්ද දුවිදේන වදාමි සේවිතබ්බම්පි අසේවිතබ්බම්පීති ඝාන විඤ්ඤේයං ගන්ධම් පාහං දේවානමින්ද දුවිදේන වදාමි සේවිතබ්බම්පි අසේවිතබ්බම්පීති ජීවහා විඤ්ඤේයං රසං පාහං දේවානමින්ද දුවිදේන වදාමි සේවිතබ්බම්පි අසේවිතබ්බම්පීති කාය විඤ්ඤේයං පොට්ටබ්බම් පාහං දේවානමින්ද දුවිදේන වදාමි සේවිතබ්බම්පි අසේවිතබ්බම්පීති මනෝවිඤ්ඤේයං ධම්මං පාහං දේවානමින්ද දුවිදේන වදාමි සේවිතබ්බම්පි අසේවිතබ්බම්පීති ඒවං වුත්තේ සක්කෝ දේවානමින්ද භගවන්තං ඊතදෝත ඉමස්සකෝ අහං භන්තේ භගවතා සංකිත්තේන භාසිතස්ස ඒවං විත්තාරේන අත්තං ආජානාමි යථාරූපං භන්තේ චක්කු විඤ්ඤේයං රූපං සේවතෝ අකුසල ධම්මා අභිවණ්ඩಂತಿ කුසල ධම්මා පරිහායන්ති ති ඒව රූපං චක්ඛු විඤ්ඤේයං රූපං නසේවිතබ්බං යථා රූපං චඛෝ භන්තේ චක්ඛු විඤ්ඤේයං රූපං සේවතෝ අකුසල ධම්මා පරිහායන්ති කුසල ධම්මා අභිවණ්ඩಂತಿ ති ඒව රූපං චක්ඛු විඤ්ඤේයං රූපං සේවිතබ්බං යථා රූපං චඛෝ භන්තේ සෝත විඤ්ඤේයං සද්දං සේවතෝ පේයාල ඝාන විඤ්ඤේයං ගන්ධං සේවතෝ පේයාල ජීවහා විඤ්ඤේයං රසං සේවතෝ පේයාල කාය විඤ්ඤේයං පොට්ටබ්බං සේවතෝ පේයාල මනෝ විඤ්ඤේයං ධම්මං සේවතෝ අකුසල ධම්මා අභිවණ්ඩಂತಿ කුසල ධම්මා පරිහායන්ති ති ඒව රූපෝ මනෝ විඤ්ඤේයෝ ධම්මෝ නසේවිතබ්බෝ යථා රූපං චඛෝ භන්තේ මනෝ විඤ්ඤේයං ධම්මං සේවතෝ අකුසල ධම්මා පරිහායන්ති කුසල ධම්මා අභිවණ්ඩಂತಿ ති ඒව රූපෝ මනෝ විඤ්ඤේයෝ ධම්මෝ සේවිතබ්බෝ හිමස්සකෝ මේ භන්තේ භගවතා සංකිත්තේන භාසිතස්ස ඒවං විත්තාරේන අත්තං ආජානතෝ තින්නාමිත්තකංඛා විගතා කතං කතා භගවතෝ පඤ්ඤවෙය්‍යාකරණං සුත්වාති ඉතිහසංකා දේවානමින්දෝ භගවතෝ භාසිතං අභිනන්දිත්වා අනුමෝදිත්වා भगवन्तं उत्तरिं पाण्यं अपुच्छे सब्बेवनुकुमारिसमनब्राह्मण एकान्तवादा एकान्तशीला एकान्तछन्दा एकान्त आज्योऽसनाति नख देवानमिन्द सब्बे समनब्राह्मण एकान्तवादा एकान्तशीला एकान्तछन्दा एकान्त आज्योऽसनाति कस्मापनमारिसन सब्बे समनब्राह्मण एकान्तवादा एकान्तशीला एकान्तछन्दा एकान्त आज्योऽसनाति अनेक धातु नाना धातु खो देवानमिन्द लोको तस्मिं अनेक धातु नाना धातुस्मिं लोके यं यदेव सत्ता धातुं अभिनिविशन्ति तं तदेव थामसा परामस अभिनिविश्वो हरन्ति इदमेव सच्चं मोघमन्यन्ति तस्मान् सब्बे समनब्राह्मण एकान्तवादा एकान्तशीला एकान्तछन्दा एकान्त आज्योऽसनाति सब्बेवनुकुमारिसमनब्राह्मण अचन्त निठा अचन्त योगक्षेमी अचन्त ब्रह्मचारी अचन्त परियोसनाति नको देवानमिन्द सब्बे समनब्राह्मण अचन्त निठा अचन्त योगक्षेमी अचन्त ब्रह्मचारी अचन्त परियोसनाति कस्मापनमारिसन सब्बे समनब्राह्मण अचन्त निठा अचन्त योगक्षेमी अचन्त ब्रह्मचारी अचन्त परियोसनाति येखो देवानमिन्द भिक्खु तन्हा संखय विमुत्ता ते अचन्त निठा अचन्त योगक्षेमी अचन्त ब्रह्मचारी अचन्त परियोसन तस्मान् सब्बे समनब्राह्मण अचन्त निठा अचन्त योगक्षेमी अचन्त ब्रह्मचारी अचन्त परियोसनाति इत्थं भगवा सङ्कस्स देवानमिन्दस्स पञ्यं पुण्ठो व्याकासे अन्तमनो सङ्को देवानमिन्द भगवतो भासितं अभिनन्दि अनुमोदि एवमेतं भगवा एवमेतं सुगत तिन्नामिथकङ्का विगता कथं कथा भगवतो पञ्चवेय्या करणं सुत्न्वाति इतिहसंको देवानमिन्दो भगवतो भासितं अभिनन्दित्वा अनुमोदित्वा भगवन्तं एतद्वोच ये जा भन्ते रोगो ये जा गण्डो ये जा सल्लं ये जा इमं पुरिसं परिखण्डति तस्स तस्सेव भवस्स अभिनिम्बत्या तस्मायं पुरिसो उच्चावचमा पञ्जति ये स्वाहं भन्ते पञ्जानं इतो बहिन्ध अन्येषु समनं ब्राह्मणेषोकाशकम्मं पिनालत्थं ते मे भगवता व्याकता दीर्घरन्तानुसयितं च पनमे विचिकिञ्छा कथा कथा सल्लं तञ्च भगवता अम्बोलन्ति अभिजानासि नो त्वं देवानमिन्द इमे पञ्ये अन्ये समनं ब्राह्मणे पुञ्चिताति अभिजानामहं भन्ते इमे पञ्ये अन्ये समनं ब्राह्मणे पुञ्चिताति यथा कथं पनते देवानमिन्द व्याकंसु सचेते अगर्भासंसूति नखो मे भन्ते गरु यत्थस्स भगवानिसिन्नो भगवन्तरूपोऽति तेन हि देवानमिन्द भासंसूति ये स्वाहं भन्ते मन्यामि समनं ब्राह्मण आरण्यका पन्तसेनासनाति त्याहं उपसङ्कमित्वा इमे पञ्ये पुञ्छामि ते मया पुण्ठा न सम्पायन्ति असम्पायन्त ममं येव पटिपुञ्छन्ति को नामो आयस्माति ते सहं पुण्ठो व्याकरोमि अहं को मारिषसङ्को देवानमिन्दोति ते ममं येव उत्तरिं पटिपुञ्छन्ति किं पनायस्मादेवानमिन्दकम्मं कत्वा इमं ठानं पतन्ति ते सहं यथा सुतं यथा पर्यत्तं धम्मं देशेमि ते तावत् केनेव अन्तमनाहन्ति सङ्कोचनो देवानमिन्दो दिट्ठो यञ्च नो अपुञ्चिं तञ्च नो व्याकासीति ते अन्यदन्तु मम एव सावका सम्पञ्जन्ति न चान्ते सं अहङ्कोपनभन्ते भगवतो सावको सोतापन्नो अविनिपातधम्मो नियतो सम्बोधिपरायणोति अभिजानासि नो त्वं देवानमिन्दयितो पुम्बे एव रूपं वेदं पटिलाभं सोमनस्स पटिलाभन्ति अभिजानामहं भन्ते इतो पुम्बे एव रूपं वेद पटिलाभं सोमनस्स पटिलाभन्ति यथा कथं पन त्वं देवानमिन्द अभिजानासि इतो पुम्बे एव रूपं वेद पटिलाभं सोमनस्स पटिलाभन्ति भूतपुम्भं भन्ते देवासुरसङ्गामो समुपम्बुल्लोऽहोऽसि तस्मिं खोपन भन्ते सङ्गामे देवाजिनिन्सु असुरा पराजयिन्सु तस्मैहं भन्ते तं सङ्गामं अभिविजिनित्वा विजितसङ्गामस्येतदोऽसि याचेव दानि दिम्बा ओजा या च असुरा ओजा उभयमिथदेवा परिभुञ्जिस्सन्तीति सोखो मे भन्ते वेदपटिलाभो सोमनस्स पटिलाभो सदण्डावचरो ससत्थावचरो न निम्बिदाय न विरागाय न निरोधाय न उपशमाय न अभिज्ञाय न सम्बोधाय न निम्बानाय संवत्तते यो खोपन मे अयं भन्ते भगवतो धम्मं सुत्वा वेदपटिलाभो सोमनस्स पटिलाभो सोऽदण्डावचरो असत्थावचरो एकंत निम्बिदाय विरागाय निरोधाय उपशमाय अभिज्ञाय संबोधाय निम्बानाय संवत्तते ते किं पन त्वं देवानमिन्द अन्थवसं सम्पश्यमानो एव रूपं वेद पटिलाभं सोमनस्स पटिलाभं पवेदेशीति चखो अहं भन्ते अन्थवसे सम्पश्यमानो एव रूपं वेद पटिलाभं सोमनस्स पटिलाभं पवेदेमीति इदेव तिष्ठमानस्स देवभूतस्स मे सतो पुनरायुच मे लद्धो एवं जानाहि मारिसाति इमं खोऽहं भन्ते पठमं अन्थवसं सम्पश्यमानो एवरूपं वेद पाटिलाभं सोमनस्स पाटिलाभं पावेदेमि चुतोहं दिव्याकाया आयुं हित्वा अमानुसं अमोलो गंभमिस्सामि यत्थ मे रमति मनो इमं खहं भन्ते द्वितीयं अथवसं संपस्समानो एवरूपं वेद पाटिलाभं सोमनस्स पाटिलाभं पावेदेमि स्वाहं अमूल पञ्यस्स विहरं सासने रतो न्यायेन विहरिस्सामि संपजानो पतिस्सतो इमं खहं भन्ते ततियं अथवसं संपस्समानो एवरूपं वेद पाटिलाभं सोमनस्स पाटिलाभं पावेदेमि न्यायेन मे चरतो च संबोधि चे भविष्यति अन्यता विहरिष्यामि स्वेव मन्तो भविष्यति इमं खहं भन्ते चतुर्थं अथवसं संपस्समानो एवरूपं वेद पाटिलाभं सोमनस्स पाटिलाभं पावेदेमि चुतोहं मानुषाकाया आयुं हित्वान मानुसं पुनदेव भविष्यामि देवलोकं हि उत्तमो इमं खहं भन्ते पञ्चमं अथवसं संपस्समानो एवरूपं वेद पाटिलाभं सोमनस्स पाटिलाभं पावेदेमि ते पनीततरा देवा अकनिष्ठायसस्सिनो अन्तिमेवन्तमानम्हि सो निवासो भविष्यति इमं खहं भन्ते चतुर्थं अथवसं संपस्समानो एवरूपं वेद पाटिलाभं सोमनस्स पाटिलाभं पावेदेमि इमे खहं भन्ते च अथवसे संपस्समानो एवरूपं वेद पाटिलाभं सोमनस्स पाटिलाभं पावेदेमि अपरियोषित संकल्पो विचिकिच्छे कथं कथि विचरिं दीघमध्यानं अन्वेषन्तो तथागतं यस्सु मन्यामि समने पवित्त विहारिनो संबुद्धा इति मन्यानो गच्छामि ते उपासितुं कथं आराधना होति कथं होति विराधना इति पुट्ठान सम्भुन्ति मग्गे पटिपदासु च त्यासु यदा मं जानन्ति सकदेवानमागतो त्यासु ममेव पुच्छन्ति किं कत्वा पापुनि इदं ते संयथा सुतं धम्मं देशयामि जने सुत तेन अन्तमना हन्ति दिट्ठो न वासवोति च यदा च बुद्धमन्दकिं विचिकिञ्चावितारणं सोम्यवीतभयोज सम्बुद्धं पयुरुपास्य तन्नासल्लस्यहन्तारं बुद्धमपटिपुङ्गलं अहं वन्दे महावीरं बुद्धमादिञ्च बन्धुनं यं करोमसि ब्रह्मणो समन्देवेहि मारिस तदञ्जतुहं कस्साम हन्दसामं करोमते त्वमेव असि सम्बुद्ध त्वं सत्तानुत्तर सदेव कस्मिं लोकस्मिं नत्थि ते पटिपुङ्गलोति अथ को सङ्को देवानमिन्दो पञ्चशिखं गन्धम्बपुत्तं आमन्तेसि बहूपकारो को मेऽसि त्वं तात पञ्चशिखं यं त्वं भगवन्तं पठमं प्रसादेसि तया तात पठमं प्रसादितं पञ्चामयन्तं भगवन्तं दर्शनाय उपसङ्कमिंह अरहन्तं सम्मा सम्बुद्धं पिन्तिके च ठाने ठपे साम गन्धम्ब राजा भविष्यसि भन्दं च ते सूर्यवञ्च सन्दम्मि साहिते अभिपन्थिताथि अथ को सङ्को देवानमिन्दो पाणिना पठविं परामसित्वा तिङ्खन्तुं उदानं उदानेसि नमो तस्स भगवतो अरहतो सम्मा सम्बुद्धस्स नमो तस्स भगवतो अरहतो सम्मा सम्बुद्धस्स नमो तस्स भगवतो अरहतो सम्मा सम्बुद्धस्साति इमस्मिन् च पनवेय्याकरणस्मिन् भञ्जमाने सङ्कस्स देवानमिन्दस्स विरजं वीतमलम् ධම්මචක්කං උදපාදි යං කිංච සමුදය ධම්මං සම්බන්තං නිරෝධ ධම්මන්ති අඤ්ඤේ සංච අසීතියා දේවතා සහස්සානං ඉතේ සංකේන දේවානමින්දේන අජ්ජිට්ඨ පඤ්ඤා පුට්ඨා තේ භගවතා බ්‍යාකතා තස්මායි මස්ස වෙයියා කරනස්ස සක්ක පඤ්ඤාත්වේව අධිවචනන්ති සක්ක පඤ්ඤසුත්තං නිට්ඨිතං අට්ඨමං